इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मूः संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती। सा अवदत् परीक्षापत्रस्रवणघटनाम् अन्वेषयितुम् अपराधिनः दण्डयितुम् च सर्वकारः प्रतिबद्धः अस्ति। आगामि आय व्ययपत्रकम् सर्वकारस्य भावनीः नीतिः लक्ष्येषु च आधारितम् भविष्यति। अमेरिकी कांग्रेस दलस्य निम्न सदनेन पाकिस्ताने जायमानस्य निर्वाचनस्य स्वतंत्र अन्वेषणस्य कृते प्रस्तावः स्वीकृतः। ऋतु विज्ञान विभागेन अद्य मध्यमा वृष्ट्याः अनुमानं कृतम्। अपि च आईसीसी विश्व चषक प्रतिस्पर्धायाः द्वितीय उपान्त्यचक्रे भारत दलं इंग्लैंड दलेन सह स्पर्धिष्यते। इदानीं वार्ताः विस्तरेण। राष्ट्रपतिः द्रौपदी मुर्मूः उभे सदने संयुक्तोपवेशने सम्बोधितवती। सा अवदत् यत् अद्यतन परीक्षापत्रस्रवणस्य घटनाम् अन्वेषयितुम् अपराधिनः दण्डयितुम् च सर्वकारः प्रतिबद्धः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती यत् परीक्षापत्रस्रवणस्य निष्पक्षतया परीक्षणाय दोषिभ्यः कठोरः दण्डः स्यात्। एतदर्थं प्रशासनं प्रतिबद्धमस्ति। राष्ट्रपतिः अवदत् यत् प्रतियोगितायाः परीक्षा भवेत् अथवा सर्वकारीय नियुक्ति प्रक्रियायाः परीक्षा स्यात्, सर्वेषु विषयेषु पूर्ण पारदर्शितायाः सत्यनिष्ठायाश्च आवश्यकता वर्तते। मम प्रशासनम् एतादृशानां चिन्ताप्रदानां परीक्षापत्राणां प्राक् प्रसारणघटनानां निष्पक्षतया अन्वेषणं कृत्वा अपराधिभ्यः कठोरं दण्डं दातुं प्रतिबद्धमस्ति। परीक्षासु अनियमिततानां विरोधे संसदा अपि कठोरं संविधानं निर्मितम्। राष्ट्रपतिः मुर्मूः उक्तवती यत् जम्मूकश्मीरस्य जनाः सद्यः सम्पन्ने लोकसभा निर्वाचने मतदानानि दत्त्वा देशस्य शत्रुभ्यः समुचितं उत्तरं दत्तवन्तः। कश्मीरोत्पत्यकायां मतदानेन बहुदशकानां मतदानस्य अभिलेखाः भग्नाः जाताः। संशोधन प्रदर्शन परिवर्तनानां संकल्पेन भारतस्य द्रुततरा वर्धमाना अर्थव्यवस्था कृता इति उक्तवती राष्ट्रपतिः द्रौपदी मुर्मूः। राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती यत् संशोधनस्य प्रदर्शनस्य परिवर्तनस्य च संकल्पेन भारतं विश्वस्य द्रुततरा वर्धमाना अर्थव्यवस्था रूपेण जातम्। नारी सशक्तीकरण विषये राष्ट्रपतिः प्रोक्तवती यत् नारी नेतृत्व विषये विकासः दरीदृश्यते। नारी शक्ति वन्दन अधिनियमे लोकसभायां राज्यसभायां च आरक्षणेन एतत्। अमेरिकी कांग्रेस दलस्य निम्न सदनेन पाकिस्ताने जायमानस्य सामान्य निर्वाचनस्य स्वतंत्र अन्वेषणस्य प्रस्तावः स्वीकृतः। पाकिस्ताने लोकतन्त्रं प्रति मानवाधिकारं च प्रति समर्थन प्रदीयमाने प्रस्तावे 24-2000 वर्षस्य सामान्य निर्वाचने अनियमिततायाः प्रकरणे स्वतन्त्रं निष्पक्षं च निर्वाचनस्य महत्वविषये बलं प्रदत्तम्। अत्रान्तरे प्रस्ताव विषये प्रतिक्रियां प्रकटयन् पाकिस्तानस्य रक्षामन्त्री अस्य आलोचनां कृतवान्। एषः प्रस्तावः 85% सदनस्य सदस्यानां सहयोगेन स्वीकृतः। 98% सदस्यैः अस्य समर्थनेन मतदानं कृतम्। पाकिस्ताने अस्मिन् वर्षे फरवरी मासस्य अष्टदिनांके सामान्यं निर्वाचनं कारितम्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीं आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ऋतुविज्ञान विभागेन अद्य जम्मू कश्मीर लद्दाख गिलगित बाल्टिस्तान मुजफ्फराबाद हिमाचल प्रदेश पंजाब हरियाणा चंडीगढ़ पश्चिमी राजस्थान इत्येतेषु राज्येषु मध्यम वृष्ट्याः पूर्वानुमानं कृतम्। विभागस्यानुसारेण असम मेघालय अंडमान निकोबार द्वीप समूह पश्चिम बंगाल सिक्किम बिहार इति राज्येषु अतिवृष्टेः संभावना प्रकटिता। विभागेन प्रोक्तं यत् आगामिनः दिवसात् जून मासस्य 30 दिनांकं पर्यन्तं झारखंड ओडिशा उत्तराखंड पूर्वी राजस्थान पूर्वीय पश्चिमीय उत्तर प्रदेशः हिमाचल प्रदेश हरियाणा पंजाब च इत्येतेषु राज्येषु अवधानेन अतिवृष्टेः संभावना अस्ति। दिल्ली नगरे न्यूनतमं तापमानं 28 डिग्री सेल्सियस परिमितं अधिकतमं च तापमानं 39 इति परिमितं भवितुं शक्यते इति। अद्य बिहार झारखंड मध्यप्रदेश राज्यानां नवनिर्वाचिताः 6 सांसदाः राज्यसभायाः सदस्यत्वेन शपथं गृहीतवन्तः। राज्यसभायाः अध्यक्षः जगदीप धनखड़े एतान् नवनिर्वाचितान् सांसदः शपथवचनं दापितवान्। कांग्रेसदलस्य सांसदः अखिलेश प्रसाद सिंहः झारखंड मुक्ति मोर्चा इत्यस्य नेता डॉ सरफराज अहमदः भारतीय जनता पार्टी इति दलस्य नेता प्रदीप कुमार वर्मा वंशीलाल गुर्जरः माया नारोलिया बाल योगी उमेशनाथश्च उच्चसदनस्य सदस्यरूपेण शपथं गृहीतवन्तः। महाराष्ट्र राज्ये विधानसभायाः प्रावृत्त सत्रस्य प्रथमे दिने विपक्षी दलेन ऋणक्षमा प्राकृतिक आपदाभिः प्रभावितानां कृषकाणां समस्यानां विषये विरोधं प्रदर्शनं कृतवन्तः। दिल्ल्याः जलमन्त्रिणः आतिश्याः लोकनायक जयप्रकाश नारायण अस्पताल इत्यत्र चिकित्सा प्रचलति। सा अद्य चिकित्सालयात् आनीता। अन्नत्यागस्य समये सोमवासरे तस्याः शर्करास्तरः अपचितः आसीत्, अतः सा चिकित्सालये पञ्जीकारिता आसीत्। नीति आयोगस्य सदस्यः डॉ वीके पॉलः अद्य नवदिल्ल्याः स्वास्थ्य परिवार कल्याण मन्त्रालयस्य सचिवः अपूर्व चन्द्रा इत्यस्य उपस्थितौ द्विदिवसीय कार्यशालायाः उद्घाटनं कृतवान्। भारतीय जनता पार्टी इति दलस्य वरिष्ठः नेता लाल कृष्ण आडवाणी अखिल भारतीय आयुर्विज्ञान संस्थाने गत रात्रौ स्वास्थ्य विकृति कारणात् चिकित्सायाम् आसीत्। सम्प्रति ततः अवकाशः प्रदत्तः। अन्ताराष्ट्रिय क्रिकेट परिषदः विश्व चषक क्रिकेट प्रतिस्पर्धायां द्वितीय उपान्त्यचक्रे भारत दलं इंग्लैंड दलेन स्पर्धिष्यते। भारत समयस्यानुसारेण अद्य सायं 8 ईशा स्पर्धा समारप्स्यते। अन्ते पुनरेकवारं मुख्याः वार्ताः। राष्ट्रपति द्रौपदी मुर्मुः संसदः उभये सदने संयुक्तोपवेशने सम्बोधितवती। आगामि आय व्यय पत्रकं सर्वकारस्य भाविनीः नीतिः लक्ष्येषु च आधारितं भविष्यति इति वार्ताः।